ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। श्रीशुक उवाच। पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन संवत्सरं तीर्थयात्रां चरित्वा श्रममाव्रजत्। कदाचिद् रेणुका याता गङ्गायां पद्ममालिनं गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत। विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता होमवेलां न सस्मार किञ्चिच्चित्ररसस्पृहा। कालात्ययं तं विलोक्य मुनेशापविशङ्किता आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः। व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितोऽब्रवीत्। घ्नतैनां पुत्रकाः पापामित्युक्तास्तेन चक्रिरे। रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत्। प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः। वरेण छन्दयामास प्रीतः सत्यवती सुतः। वव्रेहतानां रामोऽपि जीवितं चास्मृतिं वधे। उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा। पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम्। येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम्। रामवीर्यपराभूता लेभिरे शर्म न क्वचित्। एकदा शमतो रामे सभ्रातरिवनङ्गते। वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन्। दृष्ट्वाज्ञकार आसीन मावेशित धियं मुनिम्। भगवत्युत्तमश्लोके जग्नुस्ते पापनिश्चयाः। याच्यमानाः कृपणया राममात्रातिदारुणाः। प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः। रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना। राम रामे हिताते विचुक्रोशोच्चकैः सति। तदुपश्रुत्य दूरस्थो हारामेत्यार्तवत्स्वनम्। त्वरया श्रममासाद्य ददृशे पितरं हतम्। तद्दुःखरोषामर्षार्ति शोकवेगविमोहितः हातात् साधो धर्मिष्ठ त्यक्त्वा अस्मान् स्वर्गतो भवान्। विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयं। प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे। गत्वा माहिष्मतीं रामो ब्रह्मग्न विहतश्रियम्। तेषां सशीर्षभीराजन् मध्ये चक्रे महागिरिम्। तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम्। हेतुं कृत्वा पितृवधं क्षत्रे मङ्गलकारिणि। त्रिः सप्त कृत्वा पृथिवीं कृत्वा निक्षत्रियां प्रभुः। समन्तपञ्चके चक्रे शोणितो दान् हृदान् नृप। पितुक्कायेन सन्धाय शिर आदाय बर्हिषि। सर्वदेवमयं देवमात्मानमय जन्मखैः। तदौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम्। अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम्। अन्येभ्यो वान्तरदिशः कश्यपाय च मध्यतः। आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम्। ततश्चावभृतस्नान विधूताशेषकिल्बिषः सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान्। स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम्। ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः। जामदग्न्योऽपि भगवान् रामः कमललोचनः। आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत्। आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः। उपगीयमानचरितः सिद्धगन्धर्वचारणैः। एवं भृगुसु विश्वात्मा भगवान् हरिरीश्वरः अवतीर्य परं भारं भुवोहन् बहुशो नृपान्। गाधेरभून्महातेजा समिद्ध इव पावकः। तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम्। विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप। मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते। पुत्रं कृत्वा शुनः श्रेपं देवरातं च भार्गवम्। आजीगर्तं सुतानाः ज्येष्ठ एष प्रकल्प्यताम्। यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः। स्तुत्वा देवान् प्रदेशादीन् मुमुचे पाशबन्धनात्। यो रातो देवयजने देवैर्गाधिषु तापसः। देवरात इति ख्यातः शुनस्येपः स भार्गवः। ये मधुच्छन्दसो ज्येष्ठा कुशलं मे निरेन तत्। अशपत्तान्मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः। सहोवाच मधुच्छन्दा सार्धं पञ्चाशता ततः। यन्नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम्। ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्महि। विश्वामित्रः सुतानाः वीरवन्तो भविष्यथ। ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्तमाम्। एष वः कुशिका वीरो देवरातस्तमन्वित अन्ये चाष्टकहारित जय क्रतुमदादयः। एवं कौशिक गोत्रं तु विश्वामित्रैः पृथग्विधम् प्रवरान्तरमापन्नम् तद्धि चैवं प्रकल्पितम्। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षोडशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।